ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। अद्य रुद्रसूक्तं पश्यामः। इदं रुद्रसूक्तं प्रथममण्डलस्थं वा एतद् रुद्रसूक्तं द्वितीयमण्डलस्य त्रयस्त्रिंशत्तमं सूत्रम्। आते पितः तदेव किल आते पितर्मरुतागुं सुन्दमेतु इति पञ्चदशर्चं प्रथमं सूक्तं घृत्समदस्य आर्षं त्रैष्टुभं रौद्रम् इत्यस्ति। एतावत् विवरणमस्ति। पञ्चदश ऋचः सन्ति अस्मिन् सूक्ते। घृत्समदः ऋषिः तत्र त्रिष्टुप्छन्दः इति अस्य यत्र यत्र रुद्रयागः भवति नाम यत्र यत्र यागाः भवन्ति वैदिकाः यागाः भवन्ति तत्र तत्र प्रतीची दिक् या भवति वेस्ट् तस्याः उपस्थानार्थम् उत्थाय प्रतीच्यां दिशि रुद्रं स्मृत्वा तस्य नमस्करणार्थम् इदं सूक्तम् उच्यते। प्रतीची दिक् उपस्थेया अनेन सूक्तेन। एतत् श्रौतयाग अनुसारम् अस्य विनियोगः एषः एतादृशः। किन्तु कश्चन लौकिकः अपि अस्य विनियोगः अस्ति। तत्र वदति तत्र ऋग्विधाने शौनकीय ऋग्विधाने उच्यते चतुर्दशीम् उपोष्यैकां कृष्णस्य जुहुयाच्चरुम् आते सूक्तेन रौद्रेण प्रत्रिजं वाग्यतः शुचिः पूर्वमाज्जाहुति भूत्वा अथ उपस्थाय च शङ्करम् हविशेषेण वर्तेत एकान्तरम् अतन्द्रितः पूर्णमासे जयेन्मृत्युं रोगैश्च परिमुच्यते इति। नाम एतत् सूक्तम् उपयुज्य रोगजयः मृत्युजयः अपि भवितुमर्हति। तत्र कश्चन लघु होमः अपि तद्दृष्ट्या उच्यते। चतुर्दशी काचित् भवति यस्याम् उपवासः करणीयः कृष्णचतुर्दशी भवेत् कृष्णपक्षस्य चतुर्दश्याम् उपवासः करणीयः अनन्तरम् अग्रिम दिने तत्र यागः होमः करणीयः। एतस्य सूक्तस्य प्रत्येकं मन्त्रेण मौनिना भवितव्यं वाग्यतः शुचिः भूत्वा तत् करणीयम्। अनन्तरं हविशेषेण तद् आहुत्यनन्तरं यद् हविः अवशिष्टं भवति तदेव भोक्तव्यम् अग्रे एकान्ते अपि भवितव्यम्। इदं सर्वं यदा क्रियते तदा मृत्युजयः रोगजयश्च भवति। यतोहि पुनः पुनः अत्र भिषक् इत्यादि पदानि तत्र भेषजम् इत्यादि पदानि अत्र उल्लिख्यन्ते अस्मिन्नेव सूक्ते एव एतत् सर्वं भवति। अतः इदं लौकिकप्रयोजनं मृत्युजयः रोगजयश्च भवति अनेन सूक्तेन इति विनियोगः अस्य सूक्तस्य। साक्षात् प्रविशामः इदानीम्। आते पितर्मरुतां सुम्नमेतु मानसूर्यस्य सन्दृशो युयोथाः अभिनो वीरो अर्वतिक्षमेत प्रजायेमहि रुद्रप्रजाभिः इति मन्त्रः। एषः तैत्तिरीये अपि अस्ति। इदानीं तस्य अर्थं पश्यामः। पदानि अवलोकयतु। मरुतां पितः मरुतां पितः हे मरुतां पितः मरुत्संज्ञानां देवतानाम् उत्पादक रुद्र कः रुद्रः मरुतां पिता इति परिगण्यते। तत्र काचित् कथा अस्ति रुद्रः कथं मरुतां पिता इति चेत् तत्र पूर्वत्रापि प्रथममण्डले अपि एतद् उल्लिख्यते रुद्रः मरुतां पिता इति। दितिः दितिः नाम असुराणां माता। सा गर्भं धरति तदा इन्द्रः पश्यति ओ एतस्याः यः पुत्रः भविष्यति सः प्रायः मां नाशयेत् इति कृत्वा तस्य गर्भं खण्डयति सप्तधा खण्डयति पुनः तान् खण्डान् पुनः सप्तधा खण्डयति एवम् एकोनपञ्चाशत् खण्डानि खण्डान् करोति सः अनन्तरं ते एवम् एकोनपञ्चाशत् खण्डाः प्रसूताः भवन्ति तदा तत्र पार्वतीपरमेश्वरौ गच्छतः तदा पार्वती पश्यति एते सर्वेपि यथा जीवनं प्राप्नुयुः तथा करणीयं यदि भवतः मम विषये प्रीतिः अस्ति तथा करोतु इति सा पृच्छति अवश्यं करिष्यामि इति रुद्रः तेषाम् एकोनपञ्चाशत् गर्भपिण्डानामपि जन्म ददाति जीवनं ददाति ते एव मरुतः इति प्रसिद्धाः अतः एवं कथा सः पिता मरुतां पिता रुद्रः कथम् इत्यस्य एषा कथा पौराणिकी काचित् कथा इति भाति एषा अस्तु मरुतां पितः ते इत्यस्ति आते पितर्मरुताम् इत्यत्र ते त्वदीयम् अस्मभ्यं दातव्यं ते त्वदीयम् अस्मभ्यं दातव्यं सुम्नं नाम सुखम् आएतु आगच्छतु इति नाम हे मरुतां पितः रुद्र भवता यद् अस्माकं कृते सुम्नं दातव्यमस्ति सुखं दातव्यमस्ति तद् आगच्छतु तत् प्राप्नोतु भवतः सकाशाद् वयं सुखं प्राप्नुयाम इति प्रार्थना अनन्तरम् अग्रिमभागः मानसूर्यस्य सन्दृशो युयोथाः इति नः अस्मान् सूर्यस्य सन्दृशः सूर्यस्य सन्दर्शनात् मा युयोथाः मा पृथक्कार्षीः नाम वयं सर्वदापि सूर्यस्य प्रकाशे एव भवामः इति सूर्यप्रकाशसमन्विताः एव भवामः ततः अस्मान् मा अपाकुरु इत्यर्थः नाम सर्वेपि वयं ज्ञानवन्तः भवामः इत्यर्थः स्यात् अथवा सूर्यप्रकाशेनैव किल जीवनं चलति अतः सूर्यस्य दृष्टिः सर्वदा यथा अस्माकं भवेत् तथा भवान् कल्पयतु इति अस्ति एवं पादद्वयं समाप्तम् अभिनो वीरो अर्वति क्षमेत इति अर्वति अर्वा नाम शत्रुः इत्यर्थः शत्रौ नः वीरः अस्माकं वीर्यवान् पुत्रादिः अभिक्षमेत अभिभवतु कः अर्थः यः कश्चित् शत्रुः भवति तस्य पराजयं कर्तुं मम वीरः मम पुत्रः वा मम सैनिकः वा समर्थः भवतु इति क्षमेत अभिक्षमेत इति अस्य अन्यथापि कश्चन अर्थः दीयते वीरः नाम हे भवान् रुद्र भवान् वीरः अस्मान् अधिक्षमेथाः अस्य अर्थः कः इति चेत् अस्माकम् अपराधान् क्षमस्व इत्यपि अर्थः अस्ति अस्माकं पुत्रादि ये वीराः सन्ति ते शत्रुपराजये समर्थाः भवन्तु इति एकं विवरणं हे वीर रुद्र अस्माकं दोषान् क्षमस्व इत्यपि एकः अर्थः भाष्ये दत्तः कृतापराधान् अभिक्षमस्व इति अन्तिमं प्रजा ये महि रुद्रप्रजाभिः रुद्र हे भगवन् प्रजाभिः पुत्रपौत्रादिभिः प्रजा ये महि प्रभूताः स्याम अस्माकं प्रभूतं नाम अधिकम् इत्यर्थः अस्माकं पुत्रपौत्रादिसम्पत् बहु अधिका भवतु इति प्रार्थना एषः प्रथमः मन्त्रः अग्रे द्वितीयः त्वादत्तेभिरुद्रशन्तमेभिः शतं हिमा अशीयभेषजेभिः व्यस्मद्वेषो वितरं व्यम्भः व्यमीवाश्चातयस्वाविशूचीः इत्यस्ति रुद्र इति पदमस्ति प्रथमपादमेव पश्यामः त्वादत्तेभिरुद्रशन्तमेभिः इत्यंशं पश्यामः हे रुद्र तस्य सम्बोधनं रुद्रस्य त्वादत्तेभिः त्वया दत्तैः भवता दत्तैः शन्तमेभिः अतिशयेन सुखकरैः कैः भेषजेभिः भेषजं नाम औषधं त्वादत्तेभिरुद्रशन्तमेभिः शतम हिमा अशीय भेषजेभिः नाम शन्तमेभिः भेषजेभिः इति सम्बन्धः। हे रुद्र, भवानेव औषधदाता, भवता दत्तानि औषधानि कीदृशानि इति चेत् अतिशयेन सुखकराणि शन्तमेभिः भेषजेभिः। हा, शतम हिमा अशीय, हिमाः इत्युक्ते हेमन्तान्, शत संवत्सरान् अशीय व्याप्नुयाम्, अहं शतं वर्षाणि जीवेयम्, भवता दत्तैः औषधैः सुखकरैः अहं शतवर्षाणि जीवेयम् इति प्रार्थना। त्वादत्तेभिः रुद्रशन्तमेभिः शतं हिमा अशीय भेषजेभिः।
Is it referred indirectly that it's difficult to cross one winter?
तत्र हिमशब्दः अस्ति, हिमशब्दः प्रयुक्तः, हिमशब्दस्य स्नो इति अर्थः भवति, परन्तु अत्र हेमन्त, हेमन्तान् इति हेमन्त ऋतुं स्वीकरोति, यत्र हेमन्तर्तौ बहु हिमपातः भवति, सः अर्थः अपि भवितुमर्हति, तत् ट्रान्स्लेटर्स् फ्रीडम्, सः तथा कृतवान् अस्ति। शतवत्सरान् व्याप्नुयां, प्राप्नुयाम् इत्येव, अशीय हियर् तत्र लेट् मी अटैन् इत्येव अस्ति, क्रास् इत्यस्मिन् अर्थे नास्ति, सो अतः प्रायः भवितुं नार्हति, अशु व्याप्तौ इत्येव, सो लेट् मी लेट् मै लैफ् एन्कम्पास् 100 विण्टर्स् अन्त मारि चोल्ला। ओके, देन् अस्मत् पदमस्ति, यस्मद्वेषो वि अस्मद्वेषो वितरं यम्हः इत्यस्ति, अस्मत् नाम अस्मत्तः, फ्रम् अस् इत्यर्थे, द्वेषः द्वेष्टृन् विचातयस्व विनाशयस् विनाशय, नाम ये अस्माकं द्वेषिणः सन्ति तान् सर्वान् विनाशयतु इति। अनन्तरं वितरं व्यंहः इत्यस्ति, वितरं व्यंहः, अंहः, अंहः नाम पापम् इत्यर्थः, अंहः, एनः, आगः इत्येतानि पदानि पापसूचकानि। वितरम् अत्यन्तं, विचातयस्व नाशयस्व इत्यर्थः, सो अस्माकं पापानि नाशयस्व। व्यस्मद्वेषो वितरं व्यंहः विचातयस्व विनाशयस्व, पापानि नाशयस्व। अनन्तरम् अमीवाः, अमीवाः इति शब्दस्य रोगान् इत्यर्थः, अमीवशब्दस्य रोग इत्यर्थः। अनन्तरं विशूचीः, विशूचीशब्दस्य कृत्स्नशरीरव्यापकान् रोगान्, केचन रोगाः शरीरस्य कस्मिंश्चित् भागे एव भवन्ति, केचन रोगाः शरीरव्यापिनः भवन्ति, सो अमीवाः विशूचीः, ये कृत्स्नशरीरं व्याप्य तिष्ठन्ति रोगाः, तान् विचातयस्व अस्मत्तः पृथक् कृत्य नाशयस्व विनाशय इति। अतः एतद् अत्र किञ्चित् नाम हीलिङ्ग् आस्पेक्ट् अत्र अस्माभिः दृश्यते अस्मिन् मन्त्रे, भवता दत्तैः औषधैः मया शतं वर्षं वर्षशतकं यावत् मया जीवनीयम् इति प्रार्थना अस्ति, अनन्तरम् अस्माकं शरीरात् पापं निवारयतु, अनन्तरं कृत्स्नशरीरव्यापकाः ये रोगाः तानपि नाशयतु। पापस्य रोगस्य किं कः सम्बन्धः? कार्यकारणसम्बन्धः अस्ति, पापकारणात् रोगाः, पापकारणमपि नाशयतु, इदानीं यत् पापं रोगरूपेण परिवर्तितमस्ति तदपि विनाशयतु इति, कार्यकारणयोरुभयोरपि नाशः भवतः अनुग्रहात् भवेत् इति द्वितीयमन्त्रे प्रार्थना। तृतीयः मन्त्रः, श्रेष्ठो जातस्य रुद्रश्रियासि तवसां वज्रबाहो पर्षिणः पारमंहसः स्वस्ति विश्वा अभीति रपसो युयोति इति। श्रेष्ठो रुद्रस्, श्रेष्ठो जातस्य रुद्रश्रियासि, रुद्र, हे रुद्र, पुनः संबोधनं, जातस्य उत्पन्नस्य, किम् उत्पन्नं? सर्वस्य जगतः मध्ये यद्यत् जातं, नाम जगद्रूपेण यद्यत् सर्वं जातमस्ति श्रिया ऐश्वर्येण श्रेष्ठः असि. नाम अस्मिन् जगति विद्यमानेषु वस्तुषु यद्यद् उत्पन्नमस्ति जातमस्ति तत्र भवानेव श्रेष्ठः. कथं श्रेष्ठः? श्रिया श्रेष्ठः. श्रिया नाम ऐश्वर्येण, ऐश्वर्येण सम्पन्नः भवान्, अतः भवान् श्रेष्ठः. श्रेष्ठो जातस्य रुद्र श्रियासि. तवस्तमस्तवसां वज्रबाहो. हे वज्रबाहो, वज्रबाहु शब्दस्य अत्र हे आयुधहस्त, आयुधं धरति भवान् रुद्र. तवसां, तवसाम् इति शब्दस्य प्रवृद्धानां मध्ये इत्यर्थः. तवसां तवस्तमः, अत्यन्तं ये प्रवृद्धाः सन्ति, ज्येष्ठाः सन्ति, महत्वेन, महत्वेन ये ज्येष्ठाः सन्ति तेषां मध्ये भवान् तवस्तमः, तेषां मध्ये भवानेव अत्यन्तं श्रेष्ठतमः इति, अथवा वृद्धतमः. वृद्धतमः इत्यस्य कः अर्थः? योगसूत्रेपि उच्यते, स पूर्वेषामपि गुरुः कालेन अनवच्छेदात् इति. नाम तस्य कालसीमा न वर्तते. कश्चित् कदा वृद्धः इत्युच्यते? कालेन, सामान्यतः कालेन सः ज्येष्ठः वृद्धः इत्युच्यते. ये ये वृद्धाः सन्ति, वृद्धानां भवान् वृद्धतमः इति चेत् तस्य जरा न सूच्यते. अत्यन्तं कश्चित् वृद्धः अतः तिरस्करणीयः इति अर्थे न उच्यते, अपि तु काल अनवच्छिन्नः, अनादिकालात् वर्तमानः इत्यर्थः. तवस्तमः तवसां वज्रबाहो. नाम तत्र वज्रबाहुः इति पदमपि तत् सूचकं, भवान् अत्यन्तं वृद्धः तथापि वज्रबाहुः आयुधहस्तः बलवान् एव इत्यपि अत्र सूच्यते. अनन्तरं तादृशः भवान् अस्ति, भवतः सकाशात् अस्माभिः किं प्रार्थ्यते तत् अग्रे अस्ति. पर्षिणः पारमंहसः. नः, णः इत्यस्ति, तद्वस्तुतः नः. नः तादृशः भवान् अस्मान् अंहसः पारम्. अंहः नाम पापम् इत्युक्तम्. अंहसः पारम् स्वस्ति पर्षि इति पदमस्ति. नाम अंहः नाम कश्चित् समुद्रः, पापसमुद्रः अस्ति, तस्य पारम् अपरं तीरं स्वस्ति पर्षि. क्षेमेण वयं यथा पापरूपसमुद्रस्य लङ्घनं कुर्याम तथा भवान् पारय, पर्षि नाम पारय इति. कालेन अनवच्छिन्नः भवान्, आयुधहस्तः भवान्, अत्यन्तं समर्थः, अतः भवान् अस्मान् पापसागरस्य अपरं तीरं क्षेमेण प्रापयतु इति तृतीयपादः. पर्षिणः पारमंहस स्वस्ति इति. अनन्तरं विश्वा अभीतिरपसो युयोधि. रपसः, यथा अंहः इति पदं पापसूचकम्, एवमेव रपः अपि पापसूचकम्. रपसः पापस्य, पापस्य विश्वा अभीतिः. विश्वा, विश्वा नाम सर्वाः अभीतिः, अभिगमनानि युयोधि. पृथक् कुरु, अस्य कः अर्थः? नानाविधानि पापानि भवन्ति, पापानाम् अभीतिः भवति. नाम अस्मान् प्रति नानाविधानि पापानि आगच्छन्ति, तादृशपापानाम् आगमनं युयोधि, अस्मत्तः दूरं करोतु. यथा पापानि अस्मान् न, यथा पापानि अस्मान् न अभिमुखीकृत्य आगच्छेयुः, तथा तानि पापानि सर्वाण्यपि पृथक् कुरु अस्मत्तः इति. पापसागरात् तारयतु, पापस्य सम्पर्कमपि निवारयतु इति तृतीयः मन्त्रः. चतुर्थः, मात्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुति वृषभमा सहूति. उन्नो वीराम् अर्पय भेषजेभिः भिषक्तमं त्वा भिषजां शृणोमि, शृणोमि इति. मात्वा रुद्र चुक्रुधामा. हे रुद्र, चतुर्थः किल मन्त्रः हे रुद्र मात्वा रुद्र इति पदमस्ति तत्र रुद्र त्वा त्वां तत्र नमोभिः इत्यपि स्वीकरणीयं मात्वा रुद्र चुकृधाम नमोभिः नमोभिः नमस्कारैः मा चुकृधाम कोपं न कारयामः इति रुद्र भवन्तं वयं नमस्कुर्मः अस्माकं नमस्कारेण भवान् कोपं न प्राप्नोतु इति नमस्कारेण कथं रुद्रः कोपं प्राप्नुयात् अयथा क्रियमाणैः नमस्कारैः वयं कथं कथञ्चित् वयं नमस्कुर्मः कया प्रक्रिया करणीयं भवतः कथं तोषणं भवति इति वयं न जानीमः कथञ्चित् कथञ्चित् वयं नमस्कारं कुर्मः अस्माकं दोषपूर्णैः नमस्कारैः कोपं मा करोतु इति मा चुकृधाम भवन्तं क्रोधयितुं न इच्छामः मात्वा रुद्र चुकृधाम नमोभिः इति भवन्तं तोषयितुमेव प्रयत्नरताः परन्तु कदाचित् अस्माकं नमस्काराः भवन्तं न तोषयेयुः तेन कोपं मा करोतु इति यथा रुद्रः आशुतोषः इत्युच्यते सः आशुकोपनः अपि रुद्रः अतः अत्र प्रार्थना एवं क्रियते हा मा दुष्टुति वृषभ मा सहूति इति अत्र रुद्रः वृषभशब्देन उच्यते बहुत्र इतः परम् आगमिष्यति वृषभपदं पुनः पुनः रुद्रस्य विषये प्रयुज्यते वृषभ कामानां वर्षितः इति नाम यः अस्माकम् इच्छां वर्षति पूरयितुं यथा वृष्टिः वर्षति एवं सः वर्षणात् वृषभः अस्माकं कामनाः सः पूरयति तादृशः हे वृषभ रुद्र दुष्टुतीर्मा दुष्टुति दु स्तुति एव दुष्टुति पूर्वोक्तमेव तत्र अत्रापि पुनः तस्य पुनः कथनं क्रियते दोषपूर्णा स्तुतिः दुष्टुतिः दुष्टुतिः दुस्तुत्या अशोभनया स्तुत्या यथावत् करणीयं किल वयं शोभनतया वयं स्तुतिं न कुर्मः तया मा मा दुष्टुति वृषभ नाम अस्माकं दुस्तुत्या दोषपूर्णया स्तुत्या मा कोपं मा करोतु स एव पुनः अर्थः तत्रैव अस्माकं प्रायः पूर्वत्र नमस्कारैः नाम शारीरिकनमस्कारैः वयं शरीरेण नमस्कारं कुर्मः अष्टाङ्ग प्रणामो अष्टाङ्ग उच्यते इति अस्माकं शारीरकनमस्कारैः कोपं मा करोतु वाचिकमेव भवति किल स्तुतिः अतः वाचिकस्तुतिभिः कोपं मा करोतु नाम दोषपूर्णैः वाचिकस्तुतिभिः कोपं मा करोतु इत्येव अर्थः वक्तव्यः अनन्तरं सहूति मा वयं किं कुर्मः पुनः सहूति अपि कुर्मः हूति नाम आह्वानं वयं किं कुर्मः भवता सह अन्येषां देवानामपि आह्वानं कुर्मः भवत् असमानानां भवदपेक्षया न्यूनसामर्थ्यवतां देवानां भवता सह कदाचित् आह्वानं कृतवन्तः स्यामः उङ्ग्लोडे स्टेटस् अकार्डिङ्ग् टु युर् स्टेटस् यु मैट् नाट् हव् इन्वैटेड् यू यु मैट् हव् इन्वैटेड् यू इन् द कम्पनि आफ़् अदर् लोवर् गाड्स् सहूति इति तदेव उच्यते तेनापि मा चुकृधाम तेनापि भवान् कोपं मा प्राप्नोतु इति अतः सहूत्या विसदृशैः अन्यैः देवैः सह आह्वानेन मा क्रोधयामः श्रेष्ठो हि स्वस्मात् न्यूनेन सह आह्वाने क्रुद्धः भवति मम स्थानं मानं दातव्यं किल कश्चित् श्रेष्ठः अस्ति चेत् अतः नमोभिः दुष्टुतीभिः सहूतीभिः भवान् भवन्तं वयं कोपयितुं न इच्छामः वस्तुतः प्रीतिकरणमेव वयम् इच्छामः इति तद् प्रथम पादद्वयस्य मात्वा रुद्रचुकृधामा नमोभिः मा दुष्टुति वृषभ मा सहूति इति अग्रे उन्नो उन्नो वीर वीराम् अर्पय भेषजेभिः नः उन्नो इत्यस्ति किल तत्र नः इत्यस्ति नः अस्माकं धीरान् वीरशब्दस्य अत्र पुत्रान् इत्यर्थः भेषजेभिः भेषजम् औषधम् औषधैः उत् अर्पय उत् इति आरम्भे अस्ति अर्पय इति क्रियापदं मध्ये अस्ति उन्नो वीरान अर्पय भेषजेभिः इत्यस्ति अस्माकं पुत्राणां कृते उत्कृष्टं औषधं ददातु उत् अर्पय उत्कृष्टं औषधं दत्वा तेषाम् आरोग्यं पालयतु इत्यर्थः उन्नो वीरान अर्पय भेषजेभिः इति भवान् किमर्थं भेषजं दद्यात् इति चेत् विषक्तमं त्वा विषजां शृणोमि इति अन्तिमपादः अस्ति बिकास् रुद्र त्वां विषजां चिकित्सा अभिज्ञानां मध्ये विषक्तमं शृणोमि अतिशयेन भेषजस्य कर्तारं शृणोमि यतोहि विद्यमानेषु चिकित्सकेषु भवानेव परमोत्तमः चिकित्सकः अतः मम पुत्रादीनां कृते उत्तम औषधं दत्त्वा तान् स्वस्थान् करोतु इति प्रार्थना अतः रुद्रः सर्वदापि रुद्रसूक्तं वा भवतु रुद्रमन्त्राः वा भवन्तु सर्वदापि तेषां हीलिङ्ग् वेल्यू नाम आरोग्यकर अंशाः तत्र भवन्त्येव अग्रेपि आगच्छति तद्विषये तदेव तैत्तिरीयसंहिता प्रथमो दैव्यो भिषक् इति कः प्रथमः देवसम्बन्धी भिषक् इति चेत् रुद्रः एव इति तत्रापि शतरुद्रीयेपि अस्ति अनन्तरं पञ्चमः मन्त्रः हवीमभिर्हवते यो हविर्भिरवस्तोमेभि रुद्रं दिशीय ऋदूदरः सुहवो मानो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै इति हवीमभिर्हवते यो हविर्भिः यः हविर्भिः हवीमभिः हवते यः हविर्भिः हवीमभिः हवते यः रुद्रः यः इति पदं यो इति पदमस्ति किल यः रुद्रः हविर्भिः चरुपुरोडाशादिभिः नानाविध हविंषि भवन्ति तस्य कृते समर्पणाय तादृश हविंषि भवन्ति हवीमभिः पुनः आह्वानैः स्तुतिलक्षणैः वयं किं कुर्मः हवींषि सज्जीकुर्मः अनन्तरं तस्य कृते स्तोत्राणि अपि वदामः अतः हविर्भिः स्तोत्रैश्च हवते आहूयते सः रुद्रः अस्माकं हविर्हस्तैः अस्माभिः स्तोत्रमुखैः अस्माभिः रुद्रः आहूयते हविर्भिः हवते यो हवीमभिः हवते यो हविर्भिः सः रुद्रः किं कुर्यात् तं रुद्रम् अग्रे स्तोमेभिः अवदिशीय स्तोमेभिः रुद्रम् अव इत्यस्ति हविर्भिरव इति तत्र अवपदमस्ति तद् अव अन्तिमदिशीय इत्यनेन सह योजनीय क्रिया तद् उपसर्ग सः उपसर्गः अन्ते क्रियापदमस्ति अवदिशीय कः अर्थः स्तोमैः अवदिशीय स्तोत्रैः एतादृश स्तोत्रैः हविर्भिश्च अहं रुद्रम् अवदिशीय अवदिशीय अहम् अपगतक्रोधं करोमि इत्यर्थः हवींषि समर्पयामि तं स्तोत्रैः च निर्गतक्रोधं करोमि इत्यर्थः हविर्भिर्हवते यो हवीमभिः स्तोमेभि रुद्रं दिशीय अग्रे ऋदूदरस्सुहवामानो अस्यै इति एषः रुद्रः कीदृशः इति चेत् ऋदूदरः इति ऋदूदरः इति चेत् मृदूदरः इति तस्य उदरं मृदु भवति इति ऋदूदरो मृदूदरः इति इत्युक्ते अस्य कः अर्थः मृदूदरः इत्यस्य कः अर्थः तस्य शरीरस्य विवरणं वा अथवा तस्य टेम्परमेण्ट् विषये वदति वा हि केनाट् स्टोमक् थिङ्ग्स् शीघ्रं कोपं सः प्राप्नोति अतः हि विल् नाट् डैजेस्ट् थिङ्ग्स् क्विक्लि हि विल् रेस्पाण्ड् इति अर्थः इति भाति ऋदूदरः तादृशः सः ऋदूदरः निरुक्ते ऋदूदरशब्दस्य मृदूदरः इत्येव यास्केन अर्थः दत्तः तस्य कः अर्थः अस्माभिः चिन्तनीयः. ऋदूदरः मृदूदरः सुहवः, परन्तु सः कीदृशः? सुहवः, शोभन आह्वानः. आह्वातुं बहु सुखं भवति तस्य आह्वाने. अनन्तरं सः आगच्छति, अपि आह्वयामः चेत् निश्चयेन आगच्छति. सः तादृशः ऋदूदरः सुहवः. अनन्तरं तस्य अन्यदपि विशेषणं बभ्रुः इति एकं पदमस्ति. बभ्रुः, सः आह्वानसमनन्तरम् आगच्छति. किमर्थम् आगच्छति इति चेत् सः बभ्रुः. बभ्रुः इति चेत् सः एव भर्ता, नाम सर्वेषामपि रक्षकः. तस्य दायित्वमस्ति, रक्षणदायित्वम्. अतः आह्वयामः चेत् झटिति आगच्छति सः. ऋदूदरः सुहवः भर्ता, एतत् सर्वं रुद्रस्य विशेषणम्. अनन्तरं सुशिप्रः. सुशिप्रः नाम शिप्रशब्दस्य हनु इत्यर्थः. हनुः, हनु हनुभागः, तस्य शोभनशिप्रः अथवा नासिका इत्यपि अर्थः अस्ति शिप्रस्य. तस्य नासिका समीचीना अस्ति, शोभननासिकायुक्तः अथवा शोभनहनुयुक्तः. तच्चत्वारि पदानि रुद्रस्य विशेषणभूतानि सन्ति, ऋदूदरः सुहवः बभ्रुः सुशिप्रः. सः ऋदूदरः इति कारणेनैव नानाविशेषणानि उच्यमानानि सन्ति इति भाति. एवं गुणविशेषणविशिष्टः रुद्रः अस्यै मनायै. मनायै इति एकं पदमस्ति अग्रे. ऋदूदरः सुहवो नो अस्यै मनायै अन्ते, तद्वयमपि योजनीयम्. अस्यै मनायै. मनायै इत्यस्य कः अर्थः इति चेत्, अत्र मनायै इति पदं बुद्धिः इति. कीदृशी बुद्धिः? हन्मी इति मन्यमाना बुद्धिः. अहम् एतं मारयामि, एतं पीडय. रुद्रः कोपनः एव किल, सर्वदापि सः पीडयितुमेव सिद्धः भवति. अतः एतादृशी मना अथवा एतादृशी बुद्धिः, कीदृशी बुद्धिः? मारयामि इति या बुद्धिः अस्ति अस्यै मनायै. नः मा रीरधत्, अस्मान् मा वशं नैषीत्. ऋदूदरः सुहवः अभूत्, बभ्रुः सुशिप्रः अभवत्. इदानीम् अस्यै मनायै मा रीरधत् इति पदचतुष्टयम् अवशिष्टम्. नाम एतं मारयामि इति या बुद्धिः अस्ति, नः अस्माकं विषये मा रीरधत्, तादृशीं बुद्धिम् अस्माकं विषये मा करोतु इति. मा वशं नैषीत् इत्यस्ति, नाम तस्य या बुद्धिः अस्ति तस्याः बुद्धेः, मारयामि इति या बुद्धिः तस्याः बुद्धेः वशे अस्मान् न नयतु इति. भवतः मारणरूपबुद्ध्याः विषयाः वयं न भवामः इति प्रार्थना. अग्रे एषः पञ्चमः मन्त्रः किल, अग्रे इदानीं षष्ठः मन्त्रः. पास् करणीयः. षष्ठः मन्त्रः उन्माममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानं गृणीव छायामपरा अशीय विवासेयं रुद्रस्य सुम्नम् इति. उन्मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानं, वृषभः मरुत्वान् नाधमानं मा त्वक्षीयसा वयसा ममन्द इति अन्वयः भवति. वृषभः, पुनः वृषभः रुद्रः एव, पुनः तदेव पदं. कामानां वर्षयिता, इच्छाप्रदः, अस्माकं अभिमतं वस्तु प्रापयति सः, तादृशः रुद्रः. पुनः सः मरुत्वान् नाम मरुद्भिः युक्तः, मरुतः तस्य पुत्राः, पुत्रैः युक्तः रुद्रः. अनन्तरं सः किं कुर्यात् इति चेत् नाधमानं. नाधमानम् इति अन्तिमं पदमस्ति. उन्मा इत्यस्ति, नाधमानं मा इत्युक्ते नाधमानं माम् इत्यर्थः. नाधमानः इति शब्दस्य याचमानः इत्यर्थः. याचमानं माम् अहं याचमानः अस्मि. कस्य पुरतः? रुद्रस्य पुरतः. यः मरुत्वान् अस्ति, यः वृषभः अपि अस्ति, तादृशः ऋषभः रुद्रः अस्ति, तस्य पुरतः अहं याचमानः अस्मि, मां सः किं कुर्यात्? त्वक्षीयसा, त्वक्षीयसा वयसा, ममन्द उन्मा, ममन्द इत्यस्ति, ममन्द इति क्रियापदम्. अहं प्रार्थनां करोमि, मदर्थं सः किं कुर्यात् इति चेत्, अक्षीयसा नाम, अक्षीयसा इति शब्दस्य कः अर्थः? दीप्तेन इति अर्थः, दीप्तं प्रकृष्टम् इत्यर्थः. वयसा, अत्र वयश्शब्दस्य कः अर्थः? अन्नम् इत्यर्थः, उत्कृष्टम् अन्नं दत्वा ममन्द सः तर्पयतु, मां प्रीतं करोतु, अहं तस्य पुरतः प्रार्थनां करोमि, दीप्तम् अन्नं नाम अत्यन्तं बलयुक्तम् अन्नं सः मह्यं ददातु इति प्रार्थना. अनन्तरञ्च घृणीव छायाम् अपरा अशीया इति, अहं योग्यः वा इति चेत्, एतादृश अन्नप्राप्त्यर्थं भव, तस्य अनुग्रहप्राप्त्यर्थम् इति चेत् तदुच्यते घृणीव छायाम्. रुद्रस्य सुम्नम् अरपा अशीय, घृणीव छायाम् अरपा अशीय, सः भागः इदानीं स्वीक्रियते. घृणीव, घृणीव छायाम् इति स्वीकरणीयं, यथा घृणीशब्दस्य सूर्यः इत्यर्थः. सूर्येण सन्तप्तः किं करोति? छायां गच्छति, सूर्येण सन्तप्तः छायाम् अन्विष्य गच्छति. एवमेव घृणीव छायां, यथा कश्चित् सूर्यसन्तप्तः छायां प्रविशति, रुद्रस्य सुम्नम् अरपा अशीय, यथा सूर्यसन्तप्तः छायां प्रविशति, एवमेव अहं रुद्रस्य आश्रयम् अहं प्राप्नोमि इति तात्पर्यम्. रुद्रस्य सुम्नं सुखं, रुद्रस्य अनुग्रहरूपं यत् सुखं, सा एव मम कृते छाया, अहं तादृशीं छायाम् अशीय प्राप्नुयाम्. कीदृशः रुद्रस्य छायां प्राप्तुम् अर्हति? अरपा, यः पापरहितः सः एव रुद्रस्य समीपमपि गन्तुं शक्नोति इति. अनन्तरं विवासयेयम् आविवासे, आविवासेयम् आविवासेयं, तदर्थं तं रुद्रमहम् आविवासेयं परिचरेयम्, तदर्थमहं रुद्रस्य परिचर्यां करोमि, तदर्थमहं रुद्रस्य सेवां करोमि इति. रुद्रः मरुद्भिः युक्तः, सः वृषभः, अहं तस्य समीपे प्रार्थनां करोमि, मदर्थं सः दीप्तम् अन्नं ददातु, अत्यन्तं प्रकृष्टम् अन्नं ददातु, अहं रुद्रस्य छायाम् अथवा रुद्रस्य सुम्नं पापरहितः सन् प्राप्तुमिच्छामि, यथा कश्चित् आतपभीतः छायां प्रविशति तथा प्राप्तुम् अहम् इच्छामि, तदर्थमहम् आविवासेयं रुद्रस्य परिचर्यां करोमि इति. एषः षष्ठः मन्त्रः. अग्रे सप्तमः, क्वस्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाशः, अपभर्तारपसो दैव्यस्याभीनुमा वृषभ चक्षमीथाः. रुद्र ते, तत्रत्य पदानाम् अन्वयं प्रथमं वदामि, रुद्र ते मृळयाकुः स्य सः स्यः हस्तः क्व यः भेषजः जलाशः, एतावन्ति पदानि मिलित्वा एकं वाक्यं भवति. हे रुद्र, एतत्तु ज्ञातं, तव मृळयाकुः, भवतः मृळयाकुः नाम सुखदाता, हस्तः, भवतः हस्तः सुखदाता अस्ति. तत्र अग्रे अपि आगच्छति, एतत् मध्ये अपि, अयं मे हस्तो भगवान्, अयं मे भगवत्तरः इति. तस्य हस्तस्य स्पर्शः यदि भवति तर्हि सर्वविधरोगाणां निवृत्तिः भवति इत्यस्ति. रुद्र अतः तस्य हस्तः मृळयाकुः इति उच्यते, सुखदाता इति. तादृशः क्व स्य इति पदमस्ति किल, स्यः इति वस्तुतः तत् सः इत्येव. भवतः मृळयाकुः सः हस्तः क्व, कुत्र अस्ति इति अन्वेषणं. किमर्थम् इति चेत् यः अस्ति भेषजः जलाशः तस्य हस्तस्य किं वैशिष्ट्यम् अस्मिन् पादे उच्यते. तादृशः यः हस्तः अस्ति सः भेषजः, भेषजकृत् सः औषधसमानः अथवा औषधं करोति. भवतः हस्तः जलाशः नाम सर्वेषाम् इत्यर्थः. सर्वेषां भवत जलाशशब्दस्य सर्वेषाम् इति, सर्वेषां सुखकरः इत्यर्थः. भवतः हस्तः सुखदाता हस्तः कुत्र वर्तते, यः हस्तः सर्वेषामपि औषधं करोति इति. हा इत्युक्ते तेन हस्तेन मां रक्ष इति भावः. कस्य ते रुद्रमृळयाकुरु हस्तो यो अस्ति भेषजो जलाशः. इदानीम् अग्रिमपादद्वयम्, अपभर्तारपसो दैवस्यामि दैव्यस्यामि नु मा वृषभ चक्षमीतः. वृषभ पुनः वृषभपदमस्ति, वृषभ दैव्यस्य, दैव्यस्य देवकृतस्य रपसः पापस्य अपभर्ता, अपभर्ता विनाशयिता. मानु माम क्षिप्रम अभिचक्षमीथाः अभिक्षमस्व. भवतः हस्तः शोभनः अस्ति, औषधप्रदः अपि अस्ति, परन्तु वयं किं कृतवन्तः, दैव्यं रपः कदाचित् कृतवन्तः स्याम, देवापराधं कदाचित् कृतवन्तः स्याम, देवानां कृते काले काले यज्ञयागादिकं न कृतवन्तः स्याम. तादृशरपसः पापस्य अपभर्ता विनाशकः भूत्वा मा नु मां शीघ्रं, नु पदस्य शीघ्रम् इत्यर्थः, क्षिप्रम् अभिचक्षमीथाः क्षमस्व इति. देवापराधं यदि कदाचित् कृतवन्तः स्याम, येन च रोगान् प्राप्तवन्तः स्याम, तादृश अपराधान् तत्र ततः जातान् जातानि पापानि अपि निवारय इति प्रार्थना. अग्रे अष्टमः मन्त्रः, प्रबभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि नमस्या कल्मलीकिनं नमोभिः गृणीमसि त्वेषं रुद्रस्य नाम. तत्र बभ्रवे वृषभाय श्वतीचे इति त्रीणि पदानि प्रथमं स्वीकुर्मः. रुद्रसूचकमेव, स रुद्रः भर्ता, बभ्रुशब्दस्य भर्ता इति वयं दृष्टवन्तः. रक्षकः पूर्वमपि आगतं, बभ्रुः वृषभः इत्येतानि पदानि पुनः पुनः आगच्छन्ति अत्र. सः विश्वस्य भर्ता अथवा बभ्रुवर्णः वा, नाम टानी कलर् अपि अस्ति तस्य, अतः बभ्रुशब्दः तथापि अस्ति. रुद्रः एव बभ्रुः, अनन्तरं सः वृषभः अपि, अनन्तरं श्वती श्वती श्वतीचे इति पदमपि रुद्रसूचकमेव. श्वैत्यं यस्य अस्ति सः श्वतीचः, श्वैत्यं नाम श्वेतवर्णः इत्यर्थः. न सः इदं धरति किल, भस्म धरति किल, अतः सः श्वेतः. तय उच्यते नाम नीलकण्ठः इत्यपि उच्यते, शितिकण्ठः इत्यपि उच्यते. नीलकण्ठः ज्ञायते विषं गृहीतवती इति, सः शितिकण्ठः अपि, तस्य कण्ठः यथा नीलवर्णः तथा तस्य कण्ठः श्वेतवर्णः अपि भस्मद्वारा, भस्मना सह शितिकण्ठः अपि भवति.
शिति इत्युक्ते श्वेतवर्णः,
शिति नाम श्वेतवर्णः. न अत्र तस्मिन् भाष्ये शितिकण्ठशब्दस्य श्वेतकण्ठः, भस्मलेपनेन यस्य कण्ठः श्वेतः अस्ति इत्यस्ति. अतः रुद्रः बभ्रुः, वृषभः श्वेतवर्णः इति. एवं तादृशः अस्ति सः किं कुर्यात्,
श्रुति वा
श्विति वा, श्विति चे इति अस्ति,
श्वितिकण्ठः वा,
शिति शितिकण्ठः, शितिकण्ठः तत्र, शितिकण्ठः अत्र एतादृशः रुद्रः किं कुर्यात्? एवं गुणविशिष्टाय रुद्राय, सर्वं चतुर्थ्यामस्ति, रुद्राय अहं किं करोमि? एतादृशगुणयुक्ताय रुद्राय महो महीम् इत्यस्ति. बभ्रवे वृषभाय श्वती चे महो महीम्, अत्यन्तं महतीं, महतोऽपि महतीं, सुष्टुतिं, शोभनस्तुतिम्, उत्तमां स्तुतिम्, अत्यन्तं श्रेष्ठां स्तुतिं, प्र ईरयामि, अन्ते ईरयामि अस्ति, प्र इति आरम्भे अस्ति, द्वयमपि योजनीयम्. रुद्रः बभ्रुः, सः वृषभः, सः श्वतीचे इति पदेनापि स्तूयमानः. तादृशाय रुद्राय अहं किं करोमि? अत्यन्तं श्रेष्ठां सुष्टुतिम् ईरयामि, उच्चारयामि इति. अग्रे नमस्या कल्मलीकिनं नमोभिर्गृण गृणीमसि त्वेषं रुद्रस्य नाम इति अग्रिमपादद्वयम्. कल्मलीकिनं कल्मलीकिनम् इत्यस्य कः अर्थः? तदेकं विशिष्टं पदमस्ति कल्मलीकिनं. कलयति अपगमयति मलम् इति कल्मलीकम्, यत् निवारयति मलं तद् कल्मलीकम् इति. कल्मलीकम् इति शब्दस्य किं मलं निवारयति? तेजः, अग्निः. अग्निः एव तत्र कल्मलीकपदेन उच्यते. तादृश तेजः अथवा अग्निः कल्मलीकपदस्य अर्थः. कल्मलीकी कः नाम? यस्य कल्मलीकम् अस्ति सः कल्मलीकी. धनम् अस्ति इति धनी इव कल्मलीकम् अस्ति इति कल्मलीकी. तेजोयुक्तः कः? रुद्रः. कल्मलीकिनं रुद्रं किं करोमि अहं? नमोभिः नमस्कारैः, नमोभिः कल्मलीकिनं नमोभिः इत्यस्ति. नमस्य आरम्भे नमस्य इति पदमस्ति. पूजय, यः कोऽपि स्तोत्रं कर्तुमिच्छति सः कीदृशं रुद्रं पूजयेत्? यः कल्मलीकी अस्ति रुद्रः, तेजोयुक्तः रुद्रः, तं पूजये. रुद्रस्य तेजोवत्त्वरूपं पूजये, तेजोयुक्तं रूपं पूजये. नमस्या कल्मलीकिनं नमोभिः. स्तोतुः कृते इन्स्ट्रक्षन्, एवं रुद्रं कथं भावयेत्? तेजोयुक्तत्वेन भावयेत् इति. अनन्तरम् अन्तिमपादः गृणीमसि त्वेषं रुद्रस्य नाम. त्वेषं, त्वेषशब्दस्य दीप्तं प्रकाशयुक्तम् इत्यर्थः. किं तत् प्रकाशयुक्तं? रुद्रस्य नाम. रुद्रस्य नाम एव किम् अस्ति? प्रकाशयुक्तम् अस्ति इति. तत्र रुद्रस्य नाम एव कथं प्रकाशयुक्तम् इति चेत्, र इति रेफः अस्ति, रम् इति अग्निबीजं बीजाक्षरमस्ति, अतः नाम्नि एव तच्च तेजः अस्ति. पुनः रेफः कथं भवति इति चेत् वित् फ्रिक्षन् एव जायते, रिप्यते इति, अतः तत्रैव किञ्चित् तेजः जायते इति. अतः एवं भवतः नाम एव तेजयुक्तं, गृणीमसि सङ्कीर्तयामः इति. अतः सर्वमपि रुद्रसम्बद्धं तेजोमयमेव, तादृशं रुद्रं स्तुमः इति अष्टमः मन्त्रः. नवमः स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः ईशानादस्य भुवनस्य पुरेर् नवा उ योषद् योषद्रुद्राद् असुर्यम् इति. दीर्घं वाक्यमस्ति. स्थिरेभिः अङ्गैः पुरुरूपः उग्रः बभ्रुः शुक्रेभिः हिरण्यैः पिपिशे, एतद् एकं वाक्यम्. स्थिरेभिः, स्थिरैः इत्यर्थः. बहुत्र एतादृश इदं भवति भद्रं कर्णेभिः इति भवति, वस्तुतः तत्र भद्रं कर्णैः इत्येव वैदिकरूपं तद् एवमेव. स्थिरेभिः इति शब्दस्य स्थिरैः इत्यर्थः, स्थिरशब्दस्य दृढार्थः. दृढैः अङ्गैः अवयवैः युक्तः, दृढैः अवयवैः युक्तः कः? रुद्रः एव, स्थिराङ्गयुक्तः रुद्रः. पूर्वत्र तेजोयुक्तः इत्युक्तम् अत्र सः स्थिरः इति तया रीत्या भावनीयः. अनन्तरं पुरुरूपः, पुरुशब्दस्य नाना इत्यर्थः, नानारूपाणि तस्य. तत्र अस्ति किल यो रुद्रो अग्नव्यो अप्सुयौषधीषु यो रुद्रो विश्वा भुवना विदेश तस्मै रुद्राय नमो अस्तु. रुद्रस्य नानाविधरूपाणि, अग्नौ अस्ति, अप्सु अस्ति, अन्तरिक्षे अस्ति, नानाविधरूपाणि. इदमपि अस्ति अष्टमूर्तिः इत्यपि उच्यते रुद्रः. इदमस्ति तत्र शाकुन्तलस्य मङ्गलश्लोके इदं भवति. या सृष्टिस्रष्टुराद्या वहति विधिहुतं याः वीर्या च गोत्री यद्धे कालं विधत्तश्रुतिपीठे गुणा या स्थिता व्याप्य विश्वं यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिप्रपन्नस्तनुभिः अवतु वह ताभिः अष्टाभिः ईशः इति. तत्र अष्टविधरूपाणि नाम प्रकृत्यां पञ्चभूतरूपाणि इत्येवं नानारूपाणि तत्र उच्यते. अतः सः नानारूपः रुद्रः, पुरुरूपः, सः स्थिराङ्गयुक्तः, उग्रः, उग्रः अपि अस्ति तेजस्वी इत्यर्थः. अनन्तरं बभ्रुः, पूर्वमेव उक्तं, भर्ता अथवा तादृशवर्णयुक्तः, बभ्रुवर्णयुक्तः, एतादृशः रुद्रः. एतत् सर्वं रुद्रस्य नामसङ्कीर्तनं. सः शुक्रेभिः हिरण्यैः, अन्ते अस्ति पदद्वयं, शुक्रेभिः हिरण्यैः, शुक्रशब्दस्य दीप्तैः इत्यर्थः, प्रकाशयुक्तैः, हिरण्यैः, हिरण्मयैः, हितरमणीयैः वा अलङ्कारैः. सः रुद्रः आभरणानि धरति, नानाविधहिरण्मयानि आभरणानि, तस्य अलङ्करणानि दीप्तानि सन्ति. तादृशैः अलङ्कारैः किं करोति रुद्रः? पिपिशे, दीप्यते, तस्य शोभा वर्धिता दृश्यते रुद्रस्य. भवतु, एषा स्तुतिः जाता. अनन्तरम् अग्रे ईशानादस्य भुवनस्य भूरेर् नवा उयोषाद् रुद्रादसुर्यम्. ईशानात्, सः ईश्वरः, अस्य जगतः ईश्वरः, अतः सः ईशानशब्देन उच्यते. अस्य भुवनस्य, अस्य भुवनस्य, अस्य समग्रस्य प्रपञ्चस्य, भूतजातस्य, सर्वेषां प्राणिनां, सर्वेषां प्राणिनां सः ईशानः. सः भूरेः, भूरिशब्दस्य भर्ता इत्येव अर्थः. पुनः सः एव रक्षकः. ईशानादस्य भुवनस्य भूरेः, तादृशात् रुद्रात् असुर्यम्. असुर्यम् इति शब्दस्य कः अर्थः? नाम बलम् इत्यर्थः. असुर्यशब्दस्य बलम् इत्यर्थः. तादृशात् प्राणिनां रक्षकात् रुद्रात् असुर्यं न वा उ योषात्. न वा उ मूनुसेन्द नैव इत्यर्थः, नैव इत्यर्थः. योषात् पृथक् भवेत्, कः अर्थः? रुद्रे असुर्यं सर्वदा भवतु इत्यर्थः, बलं सर्वदा भवतु. किमर्थं रुद्रे सर्वदा बलं भवेत्? यतोहि सः एव अस्य सर्वस्यापि भूतजातस्य रक्षकः. तस्मिन् बलं नास्ति चेत् अस्माकं रक्षा कुतः? अतः ईश्वरे सर्वदा बलं भवतु इति. असुर्यम् इति शब्दस्य बलम् इति अर्थः अस्ति. अतः डिक्षनरि पश्यामः चेत् अन्यदेव भवति, तथैव व्याख्यानम् आश्रयणे. दशममन्त्रः. अर्हन् बिभर्षि सायकानि धन्वन् धन्वा, अर्हन् निष्कञ्यजतं विश्वरूपम्, अर्हन् निदन्दयसे विश्वमभ्वं, न वा ओजीयो रुद्रत्वदस्ति इति. अर्हन् इति पदं पुनः पुनः आगच्छति अत्र. अर्हन् नाम अर्हः, योग्यः इत्यर्थः. त्वं, हे रुद्र, त्वम् अर्हन्, अर्हन् इत्येव आरम्भः किल मन्त्रस्य. भवान् अर्हः. सायकानि, सायकशब्दस्य शरः इत्यर्थः, द एरोस् इत्यर्थः. धन्व नाम धनुः, बिभर्षि, अर्हन् बिभर्षि सायकानि धन्व. भवान् अत्यन्तं योग्यः अस्ति, अतः भवान् धनुः बाणांश्च धरति, नाम अत्यन्तं समर्थः धनुष्मान् अस्ति, प्रयोक्तुं बहु समर्थः अस्ति, अतः एव भवतः हस्ते किमस्ति धनुः च सायकानि च सन्ति, अर्हन् विभर्षि सायकानि धन्वा। अनन्तरं पुनः अर्हन् इति, भवान् योग्यः अतः यजतं विश्वरूपं निष्कं, पुनश्च भवतः किञ्चन निष्कं वर्तते, निष्कं नाम माला इत्यर्थः, हारं विभर्षि, कीदृशं निष्कं तत्? विश्वरूपं, बहुविधरूपयुक्तं, बहुवर्णरञ्जितमस्ति, नानाविध सुन्दरमस्ति तत् विश्वरूपं निष्कं। पुनश्च तत् निष्कं कीदृशं? यजतं, यजतं नाम पूजार्हम् इत्यर्थः। अतः भवतः हस्ते धनुः शरः च अस्ति, भवान् किञ्चन निष्कं धरति, मालां धरति, या च माला पूजनीया अस्ति, नानाविधा अपि अस्ति, एतद्वयं भवान् बिभर्षि, बिभर्षि इति एकमेव क्रियापदम् उभयत्रापि, धरति इत्यर्थः। अनन्तरम् अर्हन्, पुनः तृतीयवारम् अर्हन्, भवान् योग्यः एव एतत् सर्वं धर्तुं, भवति तत्सर्वं शोभते इत्यर्थः, भवन्तम् अलङ्करोति इति न, तत्सर्वं भवन्तं प्राप्य शोभते इत्यर्थः स्वीकरणीयः। अर्हन् इदं विश्वम् अभ्वं दयसे इति, इदं विश्वं नाम इदं सर्वम् इत्यर्थः, अभ्वम्, अभ्वम् इति शब्दस्य कः अर्थः? अतिविस्तृतं जगत् इत्यर्थः, अभ्वम् इदं सर्वं यत् अभ्वमस्ति, विशालं जगत् अस्ति, तत् दयसे, भवतः दयया रक्षति इत्यर्थः। अनन्तरं सरलमेव अस्ति एषः मन्त्रः, अनन्तरं सरलः, नवा ओजीयो रुद्र त्वदस्ति, रुद्र, हे रुद्र, त्वत्, त्वत्तः अन्यत्, दयसे रक्षसि इत्यर्थः, नाम इदं समग्रं जगत्, अभ्वं समग्रं विस्तृतं जगत्, दयसे रक्षसि, हे रुद्र, त्वत्, त्वत्तः भवतः अपेक्षया किञ्चित् ओजीयः, ओजस्वत्तरं, बलवत्तरं न वै अस्ति, भवदपेक्षया बलयुक्तं वस्तु अहम् अन्यत् न पश्यामि। इत्येवं रुद्रस्य प्रार्थना। अनन्तरम् एकादशः मन्त्रः, अस्य कश्चन विशिष्टः, अस्य केवलं मन्त्रस्य नूतनः कश्चन विशिष्टः विनियोगः उक्तः अस्ति, प्रयाणे मृगस्य अमनोज्ञवचः श्रुत्वा स्तुहिश्रुतम् इत्येतां जपेत् इति आश्वलायनगृह्यसूत्रे उक्तमस्ति। वयं कुत्रापि बहिः प्रस्थानं कुर्मः, कश्चन अमङ्गलप्राणिशब्दः यदि श्रूयते तर्हि एतं मन्त्रं पठित्वा गच्छन्तु इत्यस्ति। कः मन्त्रः? स्तुहिश्रुतं गर्तसदये युवानं मृगन्न भीममुपहत्वमुग्रं मृळाचरित्रे रुद्रस्तवानोन्यन्ते अस्मन्निव पन्तु सेनाः इति मन्त्रः। श्रुतं रुद्रं स्तुहि आरम्भे अस्ति, स्तुहि श्रुतम् इत्यस्ति, श्रुतं स्तुहि इति प्रथमं, यः कोऽपि हे स्तोता, कश्चित् यः रुद्रं स्तोतुमिच्छति सः श्रुतः अस्ति, रुद्रः नाम अत्यन्तं प्रसिद्धः, विश्रुतः अस्ति, प्रख्यातः अस्ति, रुद्रं स्तुहि, अमङ्गलं शब्दं शृणोति तर्हि झटिति रुद्रं स्तुहि, रुद्रस्य स्तोत्रं करोतु। भवतु, कीदृशः सः रुद्रः यः अस्मिन् सन्दर्भे स्तोत्रमर्हति इति चेत्, गर्तसदं, गर्तशब्दस्य रथः इत्यर्थः, गर्ते सीदति गर्तसत् नाम रथे उपविशति, अस्माभिः सः आगच्छति, सः वयं रथे प्रस्थानं कुर्मः चेत् सः गर्तसत् अस्माभिः सह आगच्छति सः गर्तसदम् केवलम् अस्माकम् ஒரு सः कम्पानियन् नाम तुणकि वर्तते वयसान उत्तर यारः पूर्वत्र सः वृद्धः इति उक्तः अस्माभिः सह सोऽपि आगच्छति वा वृद्धः वा इति चेत् न युवानं युवकः सः रक्षितुमेव आगच्छति सः नित्यतरुणम् इति व्याख्यानम् अतः सः अस्माभिः सह आगच्छति युवकः अपि अस्ति कीदृशः युवकः कश्चित् भीरुः युवकः वा नाम युवकः अपि भवतु यदि दुर्बलः युवकः किं करोति परन्तु सः तादृशः न मृगन्न भीमम् इत्युक्ते सः सिंहः इव भयङ्करः इति तादृशभीकरः सः एतत् सर्वं धैर्यं ददाति यदि एतादृश अमङ्गलः शब्दः श्रूयते तर्हि रुद्रं स्तुहि कीदृशः रुद्रः सः युवकः अनन्तरं सः गर्तसत् अस्माभिः सह एव आगच्छति पुनश्च सः मृगं न भीमम् अत्र न शब्दः इवार्थे सिंहः इव भयङ्करः इति तादृशः अनन्तरं केचन सिंहाः केवलं गर्जन्ति किमपि न कुर्वन्ति किल परन्तु एषः सिंहः कीदृशः उपहत्नुम् एषः उपहन्तारं शत्रून् मारयित्येव भयं मट्टं काटात् एषः मारणसमर्थः अपि उपहत्नुम् अनन्तरम् उग्रं तेजस्वी अपि अस्ति सः अनन्तरं तादृशः सः उपहत्नुम् उग्रम् अनन्तरम् अग्रिमपादद्वयं मृळाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः रुद्र हे रुद्र तत्र रुद्रपदमस्ति स्तवानः हे रुद्र अस्माभिः भवान् स्तूयमानः अस्ति स्तवानः भवान् अस्माभिः स्तूयमानः अस्ति अनन्तरं चरित्रे चरित्रे इति शब्दस्य यः स्तोत्रं करोति तस्मै इत्यर्थः अहमेव जरिता अहमेव स्तोत्रकर्ता भवानेव मया स्तूयमानः अस्ति अहं तु तादृशाय जरित्रे मह्यम् अहं भवतः स्तोत्रं करोमि मह्यं मृळ मृळशब्दस्य सुखं ददातु इत्यर्थः अहं केनचित् निमित्तेन खिन्नः अस्मि प्राणिशब्देन भवान् तु रक्षणसमर्थः भवन्तमहं स्तौमि मम विषये भवान् सुखं ददातु मृळ इति अनन्तरं ते भवतः त्वदीया सेना भवतः कश्चन शिवगणः अस्ति किल रुद्रगणः अस्ति किल सा सेना अस्मत् अन्यं एङ्गले विट्टुटु अदर् देन् अस् अस्मत् अन्यं निवपन्तु निघ्नन्तु सो लीव् अस् अण्ड् टेक् केर् आफ् अदर्स् डोण्ट् हार्म् मी इति भवतः सेना अस्मान् न पीडयतु अन्यत्र गच्छतु इति एषा प्रार्थना अत एव यथा उक्तम् आरम्भे एतादृश अमङ्गलध्वनि श्रवणे प्रस्थानसमये एषा श्लोकः वक्तुम् अर्हः अथवा सामान्यतः बहिर्गमनसमये यथा वनमाली गदीशार्मी इति श्लोकं वदन्ति प्रस्थानसमये गृहात् एषः अपि मन्त्रः भवितुमर्हति आत्मरक्षणार्थम् इति एतत् आश्वलायनगृहे सूत्रे अस्ति द्वादशः मन्त्रः कुमारश्चित् पितरं मन्दमानं प्रतिननाम रुद्रोपयन्तं भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे इति तत्रापि एकम् उपमानम् अस्ति पितापुत्र उपमानम् अस्ति वन्दमानं पितरम् अन्वयः अस्ति वन्दमानं पितरं कुमारश्चित् रुद्र उपयन्तं प्रतिननाम अस्य अर्थः कः वन्दमानम् आयुष्मान् भव सौम्य इति स्तुवन्तं पितरं कश्चित् पिता पुत्रं वन्दते वन्दते नाम कः अर्थः इति चेत् आयुष्मान् भव इति अनुगृह्णाति इति अर्थः कश्चित् पिता पुत्रं वन्दते तं कुमारश्चित् तं कुमारः किं करोति प्रतिवन्दनं करोति धन्यवादः इति वदति किल यथा कुमारः तथा यथा वन्दमानं पितरं पुत्रः प्रतिवन्दनं करोति वन्दमानस्य पितुः कृते प्रतिवन्दनं समर्पयति रुद्र ಉಪಯಂತಂ ಪ್ರತಿನನಾಮ. ಹೇ ರುದ್ರ, ಉಪಯಂತಂ ಭವತ್ ಅಸ್ಮಾಕಂ ಸಮೀಪೇ ಏವ ವರ್ತತೆ ಭವಾನ್. ಉಪಯಂತಂ ಸಮೀಪೇ ವಿದ್ಯಮಾನಂ ಪ್ರತಿನನಾಮ, ಅಹಂ ಪ್ರತಿನಮಸ್ಕಾರಂ ಕುರ್ವನ್ ಅಸ್ಮಿ ಇತಿ. ಅತ್ರ ಲೋಡೆಡ್ ಅಸ್ತಿ ಎತತ್ ಸ್ಟೇಟ್ಮೆಂಟ್ಸ್. ಕಃ ಅರ್ಥಃ, ಪಿತಾ ಸರ್ವದಾಪಿ ಸಮೀಪೇ ಏವ ಭವತಿ ಪುತ್ರಸ್ಯ, ಸರ್ವದಾಪಿ ಸಹ ಆಶೀರ್ವಾದಮಪಿ ಕುರ್ವನ್ನೇವ ಭವತಿ, ಮಮ ಪುತ್ರಃ ಸರ್ವದಾಪಿ ಆಯುಷ್ಮಾನ್ ಭವತು, ದೀರ್ಘಾಯುಷ್ಮಾನ್ ಭವತಿ ಇತ್ಯಾದಿ ವದನ್ನೇವ ಭವತಿ. ಏವಮೇವ ರುದ್ರಃ ಭವಾನ್ ಮಮ ಪಿತಾ ಸದೃಶಃ ಪಿತೃಸದೃಶಃ ಸಮೀಪೇ ಏವ ಅಸ್ತಿ, ಸರ್ವದಾಪಿ ಅನುಗ್ರಹಂ ಕುರ್ವನ್ನೇವ ಅಸ್ತಿ. ಭವಾನ್ ಅನುಗ್ರಹಂ ಕರೋತು ಇತಿ ಪ್ರಾರ್ಥನಾನ್ನ ಕರೋಮಿ, ಭವಾನ್ ಅನುಗೃಹೀತವಾನ್ ಇತಿ ಅಹಂ ಪ್ರತಿವಂದನಂ ಕರೋಮಿ. ಯಥಾ ಪುತ್ರಃ ಪ್ರತಿವಂದನಂ ಕರೋತಿ ಅಹಂ ಪ್ರತಿನನಾಮ ಪ್ರತಿವಂದನಮೇವ ಕರೋಮಿ, ನೂತನಂ ವಂದನಂ ಅನುಗೃಹಾತು ಇತಿ ನ ಕರೋಮಿ ಇತಿ. ಡಬಲ್ ಲೆವೆಲ್ ಗತಮಸ್ತಿ ತತ್. ಏವ ಪ್ರತಿನನಾಮ. ಅನಂತರಂ ಭೂರೇರ್ ದಾತಾರಂ, ಹಾ ಭೂರೇ ಬಹುಧನಸ್ಯ ದಾತಾರಂ ಜ್ಞಾಯತೆ ಏವ, ಭವಾನ್ ಬಹುಧನಸ್ಯ ದಾತಾ. ಅನಂತರಂ ಸತ್ಪತಿಂ ಸತಾಂ ಪಾಲಯಿತಾರಂ, ಸಜ್ಜನಾನಾಂ ರಕ್ಷಕಂ ಗೃಣೀಷೇ ಸ್ತೌಮಿ. ಭವಾನ್ ಬಹುಧನಸ್ಯ ದಾತಾ ಅಸ್ತಿ, ಭವಾನ್ ಸತ್ಪತಿಃ ಅಪಿ ಅಸ್ತಿ, ನಮ ಸಜ್ಜನಾನಾಂ ಪಾಲಕಃ ಅಪಿ ಅಸ್ತಿ, ತಾದೃಶಂ ಅಹಂ ಸ್ತೌಮಿ ಇತಿ. ಭೂರೇರ್ ದಾತಾರಂ ಸತ್ಪತಿಂ ಗೃಣೀಷೇ. ಅಂತಿಮ ಪಾದಃ ಸ್ತುತಸ್ತ್ವಂ ಭೇಷಜಾ ರಾಸ್ಯಸ್ಮೇ ಅಂತೆ. ಸ್ತುತಃ ಏವಂ ಅಸ್ಮಾಭಿಃ ಸ್ತುತಃ ತ್ವಂ ಅಸ್ಮೇ ಅಸ್ಮಭ್ಯಂ ಭೇಷಜಾ ರಾಸಿ ಔಷಧಂ ದೇಹಿ ಇತಿ. ಏತಾದೃಶಂ ಏತಾದೃಶ ಸ್ತುತಿ ಸ್ತುತಿಃ ಕೃತಾ ಅಸ್ತಿ ಭವತಃ ಕೃತೆ, ತಾದೃಶಃ ಭವಾನ್ ಅಸ್ಮಭ್ಯಂ ಔಷಧಂ ದದಾತು ಇತಿ. ನಮ ಏತದ ಭೂರೇರ್ ದಾತಾರಂ ಸತ್ಪತಿಂ ಇತ್ಯೇತದ ಪಿತುಃ ಅಪಿ ಸಮಾನಂ ಭವಿತುಂ ಅರ್ಹತಿ. ಪಿತಾ ಏವ ಧನಸ್ಯ ದಾತಾ ಪುತ್ರಸ್ಯ. ಅನಂತರಂ ಸತ್ಪತಿಃ ಅಪಿ ಪಾಲಯಿತಾ ಅಪಿ ಸತ್ಪುತ್ರಸ್ಯ ಪಾಲಕಃ ಅಪಿ ಭವತಿ. ತದ ಎಕ್ಸ್ಟೆಂಡ್ ಅತ್ರಾಪಿ ಕರ್ತುಂ ಶಕ್ಯತೆ. ತಾದೃಶಃ ಪಿತೃಸ್ಥಾನೇ ಭವಾನ್ ಅಸ್ತಿ ಔಷಧಂ ದದಾತು ರಕ್ಷಣಾಯ. ತ್ರಯೋದಶಃ ಮಂತ್ರಃ ಯಾವೋ ಭೇಷಜಾ ಮರುತಶುಚೀನಿ ಯಾ ಶಂತಮಾ ವೃಷಣೋ ಯಾ ಮಯೋಭು ಯಾನಿ ಮನುರವೃಣೀತ ಪಿತಾ ನಸ್ತಾ ಶಂಚ ಯೋಶ್ಚ ರುದ್ರಸ್ಯ ವಶ್ಮಿ. ಅದ್ಭುತ ಮಂತ್ರ ಏಷ, ಪುನಃ ಹೀಲಿಂಗ್ ವ್ಯಾಲ್ಯೂಸ್ ಅಸ್ತಿ ಅತ್ರ. ಯಾವೋ ಭೇಷಜಾ ಮರುತಃ ಶುಚೀನಿ ಇತಿ ಪ್ರಥಮ ಪಾದಃ. ಹೇ ಮರುತಃ ರುದ್ರಪುತ್ರಾಃ, ಮರುತಃ ನಾಮ ರುದ್ರಪುತ್ರಾಃ ಜ್ಞಾತಮೇವ. ವಹ ಯುಷ್ಮಾಕಂ ಯಾ ಭೇಷಜ ಯಾನಿ ಔಷಧಾನಿ ಭೇಷಜಾನಿ ಅಸ್ಮದ್ ಆರೋಗ್ಯ ಹೇತುಭೂತಾನಿ ಔಷಧಾನಿ ಶುಚೀನಿ ಶುದ್ಧಾನಿ ನಿರ್ಮಲಾನಿ ಸಂತಿ. ಮರುತಾಂ ಸಮೀಪೇ ಬಹು ಔಷಧಂ ಅಸ್ತಿ ಇತಿ. ವೇದೆ ಅನ್ಯತ್ರಾಪಿ ಮರುತ್ ನಮ್ಮ ವಾಯು ಅಸ್ತಿ ಕಿಲ, ವಾಯೋಃ ಚಿಕಿತ್ಸಾ ಪ್ರದತ್ವಂ ಬಹುತ್ರ ಉಚ್ಯತೆ. ಆವಾತವಾಹಿ ಭೇಷಜಂ ದಿವಾತವಾಹಿ ಯದ್ರಪಃ ತ್ವಗುಂಹಿ ವಿಶ್ವಭೇಷಜೋ ದೇವಾನಾಂ ದೂತ ಈಯಸೇ ಇತಿ. ನಮ್ಮ ವಾಯು ಯದಾ ಅಸ್ಮಾಕಂ ಉಪರಿ ಆಗಚ್ಚತಿ ಸಹ ಭೇಷಜಂ ಆನಯತಿ ಇತಿ. ಅನಂತರಂ ದಿವಾತವಾಹಿ ಯದ್ರಪಃ ಅಸ್ಮಾಕಂ ಸಕಾಶಾತ್ ರಪಃ ನಯತಿ ಪಾಪಂ ಸರ್ವಂ ನಯತಿ ಇತಿ ಭಾವನೀಯಂ. ಯತೋ ಹಿ ಸಹ ದೇವಾನಾಂ ದೂತ ಈಯಸೇ, ಸಹ ದೇವಾನಾಂ ದೂತಃ ಭೂತ್ವಾ ಸಹ ಔಷಧಾನಿ ಆನಯತಿ ಇತಿ ಭಾವನೀಯಂ ಇತಿ ಸಹ ಮಂತ್ರಃ. ಅತಃ ಮರುತಾಂ ಸಮೀಪೇ ಬಹು ಔಷಧಂ ಅಸ್ತಿ. ನಮ್ಮ ನಲ್ಲ ಕಾತಲ ಇರಿದಾರೆ ಪೂರ್ವ ಅಪಿ ಶುಡ್ ಎಕ್ಸ್ಪೋಸ್ ಅವರ್ ಸೆಲ್ಸ್ ಟು ಗುಡ್ ಕೈಂಡ್ ಆಫ್ ವಿಂಡ್ ಇತಿ ತಾತ್ಪರ್ಯ. ಅನ್ಯಃ ಅರ್ಥ ಅಪಿ ಅಲೌಕಿಕ ಅರ್ಥ ಸ್ಯಾದೇವ, ಪರಂತು ಲೌಕಿಕ ಅರ್ಥ ಏಷ ಅಸ್ತಿ. ಅತಃ ಮರುತಃ ಭವತಾಂ ಔಷಧಾನಿ ಅತ್ಯಂತಂ ಶುದ್ಧಾನಿ. ಅನಂತರಂ ಯಾ ಶಂತಮಾ ವೃಷಣೋ ಯಾ ಮಯೋಹು ವೃಷಣಃ ಪುನಃ ಕಾಮಾನಾಂ ವರ್ಷಿತಾರಃ ಮರುತಃ. ವೃಷಭಃ ಇತಿ ರುದ್ರಸ್ಯ ವಿಷಯ ಉಕ್ತಂ, ವೃಷಣಃ ಇತಿ ಮರುತಾಂ ವಿಷಯ ಉಚ್ಯತೆ. ಕಾಮಾನಾಂ ವರ್ಷಿತಾರಃ ಮರುತಃ ಯಾನಿ ಯುಷ್ಮದೀಯಾನಿ ಭೇಷಜಾನಿ. ಯಾ ಇತಿ ಪದಮಸ್ತಿ ಕಿಲ, ಯಾ ವೃಷಣಃ ಯಾ ಹೇ ಮರುತಃ ಅಸ್ಮಾಕಂ इच्छानां पूरकाः भवन्तः या यानि औषधानि शन्तमा अतिशयेन सुखकराणि तेषां सेवनेन अत्यन्तं सुखं जायते आरोग्यं जायते या मयोः पुनश्च तानि औषधानि या पुनः तानि भेषजानि मयोभू मयोभूपदेनापि उच्यते पुनः सुखमपि सुखं भावयन्ति शन्तम मयो शम्भु मयोभू इति पदम् इन् पेर्स् एव उपयुज्यते सर्वदापि शम्भु मयोभू इति एवमेव अत्रापि शन्तम मयोभू इति शम् मयः इति द्वयमपि सुखवाचकमेव शन्तम इति पदस्यापि सुखं ददाति इत्यर्थः मयोभू इति चेदपि सुखं ददाति इत्यर्थः शम्भु मयोभू द्वयमपि सुखदातृत्वसूचकान्येव सुखदातृ पराण्येव भवन्ति परन्तु कश्चन अर्थविशेषः वक्तव्यः इति कारणेन लौकिकसुखम् ऐहिकसुखम् आमुष्मिकसुखम् इति विभज्य उच्यते तावदेव अतः शन्तम मयोभू इति उभयविधसुखमपि ददाति भवतः औषधानि हे मरुतः भवताम् औषधानि किं तेन इति चेत् यानि मनुरवृणीता पिता नः अग्रे नः पिता अस्माकं पिता कः अस्माकं पिता मनुः मनुः एव समग्रमानवकुलस्य पिता आरम्भकर्ता इति परिगण्यते अतः नः पिता मनुः यानि भेषजानि अवृणीत यानि औषधानि घृतवान् प्राप्तवान् तानि ता इत्यस्ति यानि मनुरवृणीता पिता नः नः पिता मनुः यानि औषधानि प्राप्तवान् भवतां सकाशादेव प्राप्तवान् ता तानि भेषजानि रुद्रस्य तानि रुद्रस्य तानि रुद्रस्यैव भेषजानि नाम मनुः भवतां सकाशात् प्राप्तवान् भवन्तः कस्य पुत्राः मरुतः रुद्रस्य पुत्राः अतः तत्सर्वं रुद्रस्यैव रुद्रस्य इति पदमस्ति रुद्रस्य महादेवस्यैव एषः तत्र उक्तमस्ति वा हा सत्यं वृषणः इति पदेन मरुतामेव सम्बोधनं क्रियते तत्रापि रुद्रसम्बन्धः अस्ति एव रुद्रस्य इति पदमस्ति भवताम् औषधानि सुखदायकानि मनुः अपि भवतां सकाशादेव औषधानि प्राप्तवान् भवताम् औषधानि इत्युक्ते कः अर्थः वस्तुतः रुद्रस्य भवत्पितुः सकाशात् यत् प्राप्तं तदेव इति तानि औषधानि कीदृशानि एतदेव विशिष्टमत्र शञ्च योश्च तदौषधं किं करोति इति चेत् शं करोति यः च करोति शं करोति इति चेत् कः अर्थः शं शब्दस्य शमनीयम् शमनीयानां रोगाणाम् उपशमनम् इत्यर्थः शं शब्देन शमनीयानां रोगाणाम् उपशमनं करोति केचन रोगाः इदानीम् उद्भूताः सन्ति कष्टमहम् अनुभवन् अस्मि तेषां शमनं करोति अतः तानि औषधानि शङ्करोति इति शङ्करः शमयति रोगाणां शमनं करोति अग्रिमं पदम् इतोपि वैशिष्ट्यम् यः अपि करोति शञ्च योश्च योश्च इत्यस्य कः अर्थः यावनीयानां भयानां यावनात् यावनम् अस्मत्तः पृथक्करणम् इति नाम यावनम् इति यावनम् इति रूपादेव योः इति आगतमस्ति यावनं नाम निवारणम् इत्यर्थः निवारयितुं योग्यम् इति शमयितुं योग्यः कः रोगः यावयितुं रोग्यः अथवा पृथक् कर्तुं योग्यः अंशः कः इति चेत् भयं नाम रोगसम्बन्धी एव भयं भवति ट्रौमा भवति जनाः रोगपीडिताश्चेत् तद् असोसियेटेड् डिप्रेशन् ट्रौमा इत्यादि सर्वं भवति अतः रुद्रसम्बन्धीनि मनुना प्राप्तानि मरुतां यानि औषधानि सन्ति तानि रोगाणां शमनमपि करोति भयस्य निवृत्तिमपि करोति इति वेरि वेरि हीलिङ्ग् आस्पेक्ट् तत्र अस्ति. तादृशानि वश्मि तादृशानि औषधानि अहं कामये वश्मि इति पदं तादृशानि औषधानि अहम् इच्छामि इत्यर्थः. अन्यत्र एकः मन्त्रः अपि अस्ति यद्यद् मनुरवदत् तद्भेषजं मनुः यद्वदति तद्भेषजम् इत्यपि अन्यत्र उक्तमस्ति. अतः मनुः अपि कश्चन भिषक् एव मनुः भिषक् रुद्रः भिषक् मरुतः भिषजः इत्येवम् अस्ति. एतेषां सर्वेषाम् आरोग्यदातृत्वम् अस्ति. उपान्त्यः मन्त्रः पेनल्टिमेट् मन्त्रः परिणोहेति रुद्रस्य वृञ्जाः परित्वेषस्य दुर्मतिर् महीगात् अवस्थिरा मघवध्यस्तनुष्वमीढ्वस्तोकाय तनयाय मृळ. परिणो हेति रुद्रस्य वृञ्ज्या रुद्रस्य हेतिः नः परिवृञ्ज्या कः अर्थः रुद्रस्य महादेवस्य हेतिः आयुधम् आयुधं नः अस्मान् परिवृञ्ज्याः परिवर्जयतु लेट् इट् अवाय्ड् अस् let the weapons of rudra avoid us or leave us let it not come to us paritveshasya durmatir mahigat tveshasya mahi durmatih parigat tveshasya nama deeptasya tvesha shabdasya deeptih iti artha asmabhi drishta asti दीप्तस्य रुद्रस्य अत्यन्तं तेजोमयः रुद्रः तादृशः रुद्रः तस्य महती दुर्मतिः तस्य महती दुर्मतिः अपि भवति. कीदृशी दुर्मतिः दुःखकारिणी बुद्धिः नाम रुद्रः एव किल किं दण्डनदाता एषः दण्डनीयः इति काचित् मतिः भवति किल तादृशी बुद्धिः परिगा तादृशी बुद्धिः अपि अस्मान् त्यक्त्वा अन्यत्र गच्छतु तस्य आयुधमपि अस्मत्तः एतावता प्रयुक्तम् आयुधम् अस्माकं दुष्कृत्यकारणेन अस्मद्विषये सः आयुधं प्रयुक्तवान् अस्माकं पापकारणेनैव अस्मान् अस्माकम् उपरि सः आयुधं प्रयुक्तवान् तानि आयुधानि दूरं गच्छन्तु इतः परम् एतस्य उपरि आयुधम् अहं क्षिपामि इति या मतिः अस्ति सङ्कल्पः अस्ति सापि दूरं गच्छतु इति प्रथमपादद्वये इदम् उक्तम्. अनन्तरम् अवस्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ मीढ्वः मीढ्वः इति पदं रुद्रसम्बोधनात्मकं नाम अत्यन्तं समर्थः रुद्रः अत्यन्तं बलयुक्तः वेरि पोटेण्ट् इति अर्थः. मीढ्वः रुद्रः स्थिरा स्थिराणि धनूंषि तस्य धनूंषि स्थिराणि सन्ति. धनूंषि इति पदं नास्ति तत्र स्थिरा इति पदमस्ति. अवस्थिरा मघवध्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ इत्यत्र धनूंषि इति नास्ति स्थिरा इति पदमस्ति मीढ्वः इति पदमस्ति. मीढ्वशब्दस्य अत्यन्तं सामर्थ्ययुक्तः रुद्रः तस्य सम्बोधनं हे रुद्र त्वं मीढ्वः अत्यन्तं सामर्थ्ययुक्तः स्थिरा भवतः धनूंषि स्थिराणि सन्ति. मघवद्भ्यः मघवद्भ्यः इति शब्दस्य कः अर्थः इन्द्रस्य सूचकं न अत्र अत्र कः अर्थः इति चेत् हविर्लक्षणधनयुक्तेभ्यः यजमानेभ्यः वयं सर्वे यजमानाः भवतः कृते हविः स्तोत्रम् एतत् सर्वं गृहीत्वा अत्र उपस्थिताः तादृशाः वयं यजमानाः होमार्थं सिद्धाः स्मः यागार्थं सिद्धाः स्मः. अवतनुष्व भवतः धनुः स्थिरा धनुः स्थिरं वर्तते तादृशं धनुः अवतनुष्व दट् इस् अन्स्ट्रिङ्ग् युवर् बौ फार् दोस् हु आर् रेडि टु वर्षिप् यु ये भवतः पूजार्थं सिद्धाः तेषां विषये भवतः स्थिरा धनूंषि अवतनुष्व अनस्ट्रिङ्ग् करो.
यजमानः
ये पूजयितुं सिद्धाः तादृशाः सन्ति तेषां कृते भवतः धनुः स्थिरं मा भवतु इत्यर्थः. न केवलं तेषां तोकाय तनयाय मृळ ये यजमानाः सन्ति तेषां कृते एव धनुषः शिथिलीकरणम् इति न, अपि तु तेषां यजमानाः ये वयं स्मः अस्माकं तोकः अस्ति पुत्रः इत्यर्थः. तनयः नाम पौत्रः तस्य पुत्रः. तोकाय तनयाय मृळ सुखं करोतु. ये इदानीं पूजां कुर्व मूण जनरेशन्. सो वेल्फेर् इस् आस्क् फार् त्री जनरेशन्स्, टु मी, टु मै सन् अण्ड् टु हिस् सन्. मै सन् इत्यस्य तोक, तनय तत्पुत्रः इति. तेषां सुखं करोतु इति प्रार्थना. अन्तिमः अन्तिमा ऋक् अस्य सूक्तस्य. एवा बभ्रो वृषभचेकितान यथा देव नहृणीषे नहंसि हवनशृण्णो रुद्रेह बोधि बृहद्वदेव विदथे सुवीराः. पुनः रुद्रस्य त्रीणि प्रसिद्धानि एव पदानि तत्र सन्ति. बभ्रो इति पदम् तस्य सम्बोधनं, हे बभ्रो, हे भर्तः नाम जगद्रक्षक इत्यस्मिन् अर्थे, अथवा बभ्रुवर्णयुक्त इति. पुनः वृषभः कामानां प्रदाता, इच्छायाः पूरकः, अभिलाषाणां पूरकः भवान्. अनन्तरं चेकितान, चेकितानशब्दस्य कः अर्थः? यः सर्वं जानाति सः इत्यर्थः. सर्वं जानन् महाभारते आगच्छति किल चेकितान इति आरम्भे भगवद्गीतायां. चेकितानः युधामन्युश्च विक्रान्त इति तत्र श्लोकसन्दर्भे कौरवपक्षे चेकितानः इति कश्चन अस्ति, तस्य आवलिः तत्र आगच्छति. तस्य नाम यः चेकितानः, चेकितानशब्दस्य यः सर्वं जानाति सः इति. द वन् हू इस् अवेर् आफ़् एव्रिथिङ्ग्. सो बभ्रो, वृषभ, चेकितान, एतत् सर्वं रुद्रस्य सम्बोधनम्. अनन्तरं देव इत्यपि पदमस्ति. देव नाम द्योतमान, अत्यन्तं प्रकाशमान, एतत् सर्वं कः? रुद्र. तस्य सम्बोधनं यथा न हृणीषे, यथा न हृणीषे, यथा येन प्रकारेण न हृणीषे, न क्रुध्यसि, क्रुध्यसि क्रोधं न करोषि इति. क्रोधं न करोषि, न हंसि, हंसि नाम हननं न करोति इत्यर्थः. यथा भवान् कोपं न करोति, कोपः आगच्छति चेत् किं कीदृशी बुद्धिः भवति? हननस्य बुद्धिः भवति. अतः यथा कोपः अपि न स्यात्, यथा हननमपि न स्यात्, एवं तदर्थं हवनश्रुत्, हवनश्रुत् अस्मदीयम् आह्वानं शृण्वन् भवतः क्रोधशमनार्थं, भवतः हननबुद्धिनिवारणार्थम्, अस्माकं विषये हननबुद्धिः या अस्ति तस्य निवारणार्थं प्रथमं कृपया अस्माकम् आह्वानं शृणोतु इति. हवनं शृणोतु इति, हवनं हवनश्रुत् इति शृण्वन् तर्हि किं करणीयं? नः अस्मान् हवनश्रुत् नो इत्यस्ति. नः अस्मान् रुद्र इह, रुद्रेह इत्यस्ति किल, रुद्र इह बोधि बुध्यस्व, वयम् अत्र स्मः इति आगच्छतु इति. भवान् क्रुद्धः, हन्तुमपि सिद्धः, प्रथमं कृपया शृणोतु. किं श्रोतव्यम्? अस्माकम् आह्वानं शृणोतु. आह्वानं शृणोषि चेत् एते पूजकाः अत्र सन्ति, आराधकाः अत्र सन्ति इति अवगच्छतु. इह बोधि अवगच्छतु इति बुध्यस्व. यदि भवान् अस्माकम् आह्वानं श्रुत्वा अस्माकं परिचयं प्राप्नोति, ओ एते सर्वे स्तोतारः इति यदा अवगच्छति तदा किं भवति इति चेत् विदथे सुवीराः बृहत् स्तोत्रं वदेम, बृहद्वदेम विदथे सुवीराः. विदथे नाम गृहे अथवा यज्ञे इत्यर्थः. अस्माकं गृहे वा अस्माकं यज्ञानुष्ठाने वा सुवीराः उत्तम पुत्र पुत्रयुक्ताः सन्तः वयं बृहत् प्रौढं त्वदीयं स्तोत्रं वदेम उच्चारयामः. किञ्चित् अवधानं ददातु अस्माकं विषये. यदि भवान् किञ्चित् अवधानं दत्त्वा एते स्तोतारः अत्र सन्ति इति यदि भवान् अवगच्छति तर्हि नित्यमेव अस्माकं गृहेषु नित्यमेव अस्माकं यज्ञादिकलापेषु पुत्रपौत्रादिसमृद्धाः वयं भवतः अधिकं स्तोत्रं वदामः. तेन भवान् तुष्टः भवतु रुष्टः मा भवतु इति प्रार्थना. अत्र विशिष्य वयं पश्यामः चेत् रुद्रस्य कोपयुक्तत्वं बहुधा ज्ञायते. एवमेव रुद्रस्य चिकित्सकत्वमपि बहुधा अत्र स्तुतमस्ति इति. पापनिवारणेन चिकित्साप्रदातृत्वमपि अत्र लक्ष्यते. अतः एतस्य सूक्तस्य पठनेन रोगस्य निवृत्तिः पापानां निवृत्तिः अपि भवति इति ज्ञायते इति शम्. ॐ शान्तिः शान्तिः शान्तिः.